अथ सप्तत्रिंशः सर्गः तप्यमाने तदा देवे सेन्द्राः साग्निपुरोगमाः सेनापतिमभीप्सन्तः पितामहमुपागमन् ततो ब्रुवन् सुराः सर्वे भगवन्तम् पितामहम् प्रणिपत्य सुरा रामसेन्द्राः साग्निपुरोगमाः येन सेनापतिर्देव दत्तो भगवता पुरा स तपः परमास्थाय तप्यते स्म सहो मया यदत्रानन्तरम् कार्यम् लोकानाम् हितकाम्यया संविधत्स्वविधानज्ञत्वम् हि नः परमागतिः देवतानाम् वच श्रुत्वा सर्वलोकपितामहः सान्त्वयन्मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् शैलपुत्र्या यदुक्तम् तन्न प्रजास्वासु पत्निषु तस्या वचनमक्लिष्टम् सत्यमेव न संशयः इयमाकाशगङ्गा च यस्याम् पुत्रम् हुताशनः जनयिष्यति देवानाम् सेनापतिमरिन्दमम् ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तम् सुतम् उमायास्तद्बहुमतम् भविष्यति न संशयः तच्छ्रुत्वा वचनम् तस्य कृतार्था रघुनन्दन प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ते गत्वा परमम् राम कैलासम् धातुमण्डितम् अग्निम् नियोजयामासुः पुत्रार्थम् सर्वदेवताः देवकार्यमिदम् देव समाधत्स्वहुताशना शैलपुत्र्याम् महातेजो गङ्गायाम् तेज उत्सृज देवतानाम् प्रतिज्ञाय गङ्गामभ्येत्य पावकः गर्भम् धारय वै देवि देवतानामिदम् प्रियम् इत्येतद्वचनम् श्रुत्वा दिव्यम् रूपमधारयत् स तस्या महिमाम् दृष्ट्वा समन्तादवशीर्यत समन्ततस्तदा देवीमभ्यषिञ्चत पावकः सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन तमुवाच ततो गङ्गा सर्वदेव पुरोगमम् अशक्ताधारणे देव तेजस्तव समुद्धतम् दह्यमानाग्निना तेन सम्प्रव्यथितचेतना अथाब्रवीदिदम् गङ्गाम् सर्वदेवहुताशनः इह हैमवते पार्श्वे गर्भोऽयम् सन्निवेश्यता श्रुत्वा त्वग्निवचो गङ्गा तम् गर्भमतिभास्वरम् उत्ससर्जमहातेजा स्रोतोऽभ्यो हि तदा नघा यदस्या निर्गतम् तस्मात्तप्तजाम्बूनदप्रभम् काञ्चनम् धरणीम् प्राप्तम् हिरण्यमतुलप्रभम् ताम्रम् कार्ष्णाय सञ्चैव तैक्ष्ण्या देवाभिजायत मलम् तस्याभवत्तत्रपुसीसकमेव च तदेतद्धरणीम् प्राप्य नानाधातुरवर्धत निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् सर्वम् पर्वतसन्नद्धम् सौवर्णमभवद्वनम् जातरूपमिति ख्यातम् तदा प्रभृतिराघव सुवर्णम् पुरुषव्याघ्रहुताशनसमप्रभम् तृणवृक्षलता गुल्मम् सर्वम् भवति काञ्चनम् तम् कुमारम् ततो जातम् सेन्द्राः सह मरुद्गणाः क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन् ताः क्षीरम् जातमात्रस्य कृत्वा समयमुत्तमम् ददुः पुत्रोऽयमस्माकम् सर्वासामिति निश्चिताः ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः तेषाम् तद्वचनम् श्रुत्वा स्कन्नम् गर्भपरिस्रवे स्नापयन् परया लक्ष्म्या दीप्यमानम् यथा नलम् स्कन्द इत्यब्रुवन् देवा स्कन्नम् गर्भपरिस्रवे कार्तिकेयम् महाबाहुम् काकुत्स्थज्वलनोपमम् प्रादुर्भूतम् ततः क्षीरम् कृत्तिकानामनुत्तमम् षण्णाम् षडाननो भूत्वा जग्राहस्तनजम्पयः गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा अजयत्स्वेन वीर्येण दैत्यसैन्यगणान् विभुः सुरसेनागणपतिमभ्यषिञ्चन्महाद्युतिम् ततस्तममराः सर्वे समेत्याग्निपुरोगमाः एष ते रामगङ्गाया विस्तरोऽभिहितो मया कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च भक्तश्च यः कार्तिकेये काकुत्स्थभुवि मानवः आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यताम् व्रजेत् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तत्रिंशः सर्गः।